नमस्तर्वेभ्यः। अद्य शिक्षावर्गस्य पञ्चमः पाठः, जून् मासस्य 30 दिनाङ्कः। प्रार्थनया आरम्भं कुर्मः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्ति नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्मि गुरौ मम पाहि गुरो। गतवर्गे व्याकरणांशेषु सन्धिविभागं ज्ञातवन्तः। सन्धयः त्रिविधाः भवन्ति, अच्सन्धिः अथवा स्वरसन्धिः, हल्सन्धिः अथवा व्यञ्जनसन्धिः, एवं विसर्गसन्धिः इति। तत्र स्वरसन्धीनां संक्षेपेण ज्ञानम् अपि प्राप्तवन्तः, ततश्च व्यञ्जनसन्धिं ज्ञातवन्तः। व्यञ्जनसन्धिः इत्युक्ते व्यञ्जनस्य स्थाने आदेशः अथवा आगमः भवति। तेषु प्रथमः अस्माभिः अधीतः जष्वसन्धिः। पुनश्च काव्यांशेषु द्वयोः भगवद्गीताश्लोकयोः अध्ययनं कृतवन्तः। एकां सहेलिकां दृष्टवन्तः। राजन् कमलपत्राक्ष तत्ते भवति चाक्षयम्, आसादयति यद्रूपं करेणुः करणैर्विना। करेणुः इत्यत्र करण इति निष्कास्य अ ए उ स्वरसन्धौ कृते आयुः इति उत्तरं प्राप्यते। लौकिकन्यायद्वयमपि दृष्टं, देहलीदीपन्यायः तथा सूचीकताहन्यायः। अद्य अग्रे गमनात् पूर्वं जष्टसन्धेः नियमस्य पुनरावर्तनं कुर्मः। पदान्ते वर्गीयव्यञ्जनानां प्रथम द्वितीय तृतीय चतुर्थवर्णाः भवन्ति चेत् ततः परं स्वरः अथवा मृदुव्यञ्जनम्। मृदुव्यञ्जनम् इत्यनेन वर्गस्य प्रतिवर्गं तृतीय चतुर्थ पञ्चमवर्णाः यरलवः एते वर्णाश्च उच्यन्ते। श्रुते भवन्ति चेत् वर्गस्य तृतीयः वर्णः, सो द थर्ड् लेटर् आफ् द रेस्पेक्टिव् वर्ग। कवर्गस्य गकारः, चवर्गस्य जकारः, टवर्गस्य डकारः, सवर्गस्य दकारः, पवर्गस्य बकारश्च आदेशः भवति। एवमेव पदान्ते विद्यमानस्य षकारस्य डकारः भवति इति जष्टसन्धेः नियमः। एते वर्णाः ग ज ड द ब वर्गतृतीयानां जश् इति व्यवहारः भवति पाणिनीयव्याकरणे। So, if you have studied a concept called pratyahara, where these are abbreviations for different letters, like ach stands for swara, the vowel, hal stands for vyanjana. So, jash is an abbreviation for the third letter, and that is why we call the sandhi as jashta sandhi. So, satra abhyasaha kachit dattaha asti. सन्धेः योजनं तथा पृथक्करणम् इति ये वक्तुमिच्छन्ति हस्तमुष्णे। विजेश विजेश
नमस्ते। दिक् अम्बरः दिगम्बरः
दिगम्बरः दिगम्बरः ककारस्य स्वरे परे गकारः
गकारः नेक्स्ट शल आई कंटिन्यू
यस टू ईच
या तत् एव तदेव
तत् एव तदेव
तदेव
धन्यवादः सो तकारस्य स्वरे परे दकारः भवति राव
या गुड मॉर्निंग कैन यू हियर मी
यस
धिक् प्लस धनम दिग्धनम ककारस्थाने ककार आदेश भवति प्रावृट् प्लस जलम प्रावड्डिजलम डकारस्थाने
राइट प्रावृड् जलम सो डकारस्य डकारः भवति धन्यवादः सो अर्थः ज्ञायते इति चिन्तयामि दिक् अम्बरः दिगम्बरः सो यस्य दिशः एव अम्बराणि he who has the direction as his club digambara is popularly referred to shiva there is also a class of sanyasin so tadeva jnayate dhig dhanam dhik iti it's an exclamation so phai upon something so dhanam dhik so phai upon money iti dhanasya ninda anena pradarshyate pravritta वृष्टिः जलम् सो रेन् वाटर् प्रावृत् जलम् श्रीराम
यस् या केन् यू हियर् मी
यस्
सृक् यम् रगियम्
रगियम् ककारस्य
अच् वर्णः अज्वर्णः
अज्वर्णः सो चकारस्य जकारः
केन आई हैव द मीनिंग ऑफ द प्रीवियस वर्ड
स्रगियम् स्रक् इज अ गार्लैंड अ माला इयम् स्रक् दिस इज अ गार्लैंड अज्वर्णः सो वोवेल लेटर इज अज्वर्णः श्रीराम कृष्णमूर्ति श्रीराम कृष्णमूर्ति
नमस्ते अप जातम प स्थाने ब भवति अप जातम अप जातम
अप जातम सो इट इज अब्जम सो बॉर्न in water so up is water jatam is born
samrat asti asti ta stani da bhavati samrad asti samrad
asti so samrad asti so there is an emperor samrat is an emperor ramakrishna rao you have to unmute yourself
रामकृष्णराव
So, vaded iti. So, vaded is must tell iti. So, it is in between a sentence.
Vaded. Shadadikam.
Shat plus adhikam.
Shadadikam.
Shadadikam. Six more. So, shadadikam. Six more. Takara. Sredakara. So, akre. सन्धेः पृथक्करणम् तत्र विद्यमानानां वर्णानाम् अभिज्ञानं च करणीयम् रामानुजम्
बृहत गात्र है, बृहत गात्र है, तकार से स्थाने तकार है.
तो बृहत गात्र त प्लस ग, तो ग तकार से स्थाने दकार भवति.
धीमत धीमत वर है, धीमत वर है.
तो धीमत वर है, तो अत्र भी तकार से स्थाने दकार है. सो त प्लस व बिकम्स द्व. तो उभयमपि मृदु व्यंजनम. धन्यवादः. सो व्हेन फॉलोड बाय मृदु व्यंजन सकार बिकम्स दकार. सो वन नॉट हियर. सो इन दैट एक्सरसाइज दिस वन एतदासीत् सकारस्य दकारस्य ट प्लस द इक्वल्स द. सो तत्र अर्थः उभयोः स्थाने दकारः भवति इति न, सकारस्य स्थाने दकारः, दकारः तु तथैव भवति. तत्तु ज्ञातव्यम् सर्वदा. बृहद् गात्रः, सो बृहत् गात्रम्, गात्रम् नाम शरीरम्. सो ही हू हेज़् अ ह्यूज् बाडि. धीमद्वरः, धीमत् वरः. सो धीमान् बुद्धिमान् इत्यर्थः. धीमत्सु वरः श्रेष्ठः. सो ही हू इस् वेरि इण्टेलिजेण्ट् इत्यर्थः. अग्रे गच्छामः. पञ्चनदं स्वामिनाथन् महोदय.
बाणः वाक् प्लस् बाणः.
वाक् प्लस् बाणः. ककारस्य स्थाने गकारः भवति.
वाक् प्लस् ईशः, वागीशः.
वागीशः, वाक् ईशः. सम्यक्. धन्यवादः. सो अत्र ककारस्य स्थाने गकारः. स्वरे परे मृदुव्यञ्जने परे जष्टसन्धिः भवति. निर्मला, निर्मला राजशेखर. अन्म्यूट् करणीयम्. न श्रूयते.
Can you hear me now?
नमस्ते.
महदस्ति, महत् प्लस् अस्ति, तकारस्य स्थाने तकारः भवति.
महत् अस्ति, महदस्ति. सो तकारस्य अकारे परे सो दकारः भवति.
पङ्वादने षड्वादने षट् प्लस् वादने स्थाने भवति
लकारः भवति. षड्वादने, सिक्स् ओ क्लाक्, एट् सिक्स् ओ क्लाक् इत्यर्थः. अग्रे महेश्वरी.
नमस्ते. मधु मधुलिट् डयते, मधुलिट् प्लस् डयते, तकारः स्थाने डकारः भवति.
स्थाने डकारः भवति,
डकारः भवति.
मधुलिट् डयते, डकारे परे तकारस्य स्थाने डकारः. सो फैनली यू हाव् डबल् डकार. मधुलिट् डयते. सो मधुलिट् इत्युक्ते भ्रमरः, दहनी दि. सो डयते, सो फ्लैस् the bee, honeybee's life itself. Subantam. Maheshwati.
Sup plus antam, takaraha sane, bakaraha bhavati, subantam.
Sup antam, pakarasya sthane, bakaraha, subantam. So, sup iti pratyayaha santi vyakarane. So, ramaha ramau ramaha, ityatra rama iti pratipadikam. Tatra ye pratyayaha santi, ekavimshatihi pratyayaha, the 21 pratyayas are called sup. So, sup ante yasya. So, that word which has sup pratyayas at the end is subantam. Subantam nama padam iti samanyatah satyate. Ramaha iti subantam. Harihi iti subantam. Ityami. Mahalakshmi.
Namaste. Ud gachati. Ut plus gachati. Sakarasya sthane dakaraga bhavati.
Dakarasya sthane dakaraha ut gacchati udgacchati. Ut iti upari ityarthe bhavati. So upari gacchati. So which springs up ityarthe udgacchati iti prayogaha.
Abha dina. Apa dina. Abha up adinam.
Sammik. Up adinam. Abadinam.
Bakara.
Bakara sthane. Bakara bhavati. Up adinam. Abadinam. So, up jalam. Ityadinam. So, of water and other. Ityartha. Abadinam. Okay. So, atra kechana prashnaha santi. Atra dakaraha katham dvivaram agacchati. One dakara is already there. Dayate etyatra dakaraha purvameva asti. So, takarasya anyaha dakaraha. Tavadeva. So, dakara dvayam sandhina nabhavati. So, purvamekaha dakaraha. Idanin takarasya dakaraha bhavati jashta santi. Kaha
kimudaharaya. Namaste. Atra na pratham udaharane dakaraha dvayam bhavati. Mahastiti mahana etat na mahadasti previous.
Mahadasti atrasti kila dani.
Atra na previous. Agre previous exam.
Mahadasti iti atrasti.
No, first example. First step. Shatarisam. Vadesiti. Vadesiti. Etatim. Vadesiti.
Vade. Purvameva asti. Vade. Di. Tu. I. Becomes di. Ti. Vade. Di. Ti.
Vade. Dhanyavaada.
Kenachit prashtam dhik pravrit sakrak itye tesham kaha arthah iti uktam dhik iti ninda suchakam. So dhik phai upon iti samanyatah anuvadah kriyate. So ninda suchakam avyayam tate pravrit vrishtihi ityarthah srak ityasya mala ityarthah. Etani jashtva sandehe udaharanani jnatani agre gachhamaha. So jashtva sandhi was the first sandhi and a fairly easy sandhi. So agre ekam shlokam gachhamaha. Kamale kamala shete haras shete himalaye shirabdhau chaharish shete manye matpuna sankaya इति अयमपि कश्चित् हास्यपूर्वकः श्लोकः. सो कमले कमला शेते, सो कमला इत्युक्ते लक्ष्मीः, सो लक्ष्मीः कमले शेते कमलपुष्पे, सा कमलवासिनी इत्येव किल प्रसिद्धा. अतः तत्र शयनं करोति. हरश्चेते हिमालये, हरः शिवः हिमालये शयनं करोति. क्षीराब्धौ च हरिश्चेते, क्षीरसागरे विष्णुः शयनं करोति. किमर्थम् एतानि स्थानानि चितानि, विशिष्टानि स्थानानि शयनार्थम् इति चेत्, मन्ये अहं चिन्तयामि इति कविः वदति. मत्कुणशङ्कया, मत्कुणः मत्कुणः इस् अ बेड् बग्. सो सामान्यशय्यायां मत्कुणानां बाधा भवति. मत्कुणेभ्यः आत्मानं रक्षितुं विशिष्टेषु स्थानेषु गत्वा, हिमालये अत्यन्तं शैत्यं भवति अतः मत्कुणाः न भवेयुः. क्षीराब्धिः द्रवं, सो लिक्विड् तत्र न भवेयुः. कमलपुष्पं तत्रापि न भवेयुः इति मत्कुणशङ्कया, सो मत्कुणेभ्यः रक्षितुम् एतादृशस्थलेषु एते वसन्ति वा इति कविः चिन्तयति. ह्यूमरस् श्लोक. सो अत्र हरश्चेते इत्यस्ति, हरः शेते, हरः शेते इत्यत्र विसर्गः, तत्र हरस् शेते इति भवति. ततः सकारः अस्ति, सकारस्य षकारः हरश्चेते इति भवति. एवमेव हरिश्चेते, हरिः शेते, विसर्गस्य सकारः हरिस् शेते, तस्य सकारस्य पुनः षकारः हरिश्चेते. सो उभयत्रापि सन्धिद्वयम् अस्ति, एकः विसर्गसन्धिः, अपरः व्यञ्जनसन्धिः. सो फस्ट् विसर्ग इस् बीङ्ग् मोडिफैड् अण्ड् देन् द व्यञ्जन सकार इस् बीङ्ग् मोडिफैड्. सो इदानीं व्यञ्जनसन्धिभागं पश्यामः. अत्रैव शिक्षावर्गे अग्रे विसर्गसन्धिः अपि ज्ञायते. सो इदानीम् अयं सन्धिः ज्ञातव्यः. सः सन्धिः अस्ति श्चुत्वसन्धिः. सो द सेकेण्ड् सन्धि वि आर् गोयिङ्ग् टु स्टडि इस् श्चुत्वसन्धिः. कानिचन उदाहरणानि पश्यामः, ततः तस्य नियमः कः भवति इति जानीमः. वैकुण्ठे शेषतल्पे हरिष्येते इति उदाहरणम्. सो वैकुण्ठे शेषतल्पे, तल्प इत्यस्य शय्या इत्यर्थः. सो आदिशेषः एव शय्या. सो आदिशेषस्य शय्यायां हरिष्येते, इदानीं यद्दृष्टं तदेव उदाहरणम्. हरिष्येते इत्यस्ति, तत्र हरिस् शेते, सकारस्य स्थाने षकारः दृश्यते. रामः लक्ष्मणश्च अरण्यं गतौ. सो लक्ष्मणश्च, सो तत्र लक्ष्मणश्च, लक्ष्मणश्च, सो सकारस्य स्थाने षकारः दृश्यते. सायंकाले मन्दं मरुच्चलति. सो मरुत् चलति, मरुच्चलति, सो तकारस्य चकारः. सायंकाले मन्दं मरुत्, सो ब्रीज् अ स्लो विंड, मरुत् वायुः इत्यर्थः. मन्दं मरुत् अ स्लो ब्रीज् इस् मूविंग्, सो देर् इस् अ स्लो ब्रीज् इन् द ईवनिंग् इत्यर्थः. मरुच्चलति, मरुत् चलति. आकाशे शरच्चन्द्रः प्रकाशते. शरच्चन्द्रः, शरत् चन्द्रः, शरच्चन्द्रः, तकारस्य चकारः, शरत्कालस्य चन्द्रः. शरत् इति ऋतुः, द आटम् इस् काल्ड् शरत्. सो शरत्कालिकः चन्द्रः, So the Chandra and the Sharatkala bahu sundaraha bhavati. Eto hi vrishtikalaha samaptaha meghaha na santi. The sky is clear. So the Sharat Chandra appears much more brighter than in the other times, especially after the Vrishtikala. So the Sharat Chandra is much more visible, so shining. Satayeva Sharat Chandraha is uchyate. Bahunam namani api bhavanti Sharat Chandraha. So Sharat Chandraha vishishtaha. Sanjeevini mritam ujjivayati. Ujjivayati. So ud jivayati ujjivayati. Dakarasya jakaraha bhavati. Ujjivayati. Balaha mritshakatikam rachitavan. Mritshakatikam. So mritshakatikam mritshakatikam. So shakatika is a small cart. Mrit is clay or mud. So the boy created a clay cart. Mritshakatikam. So there is a popular drama. Samskrita. Samskrite krutihi asti. Mritshakatikam. Tatra adau mritshakatikam iti bhavati. Agre anyaha vyanjana sandhihi asti bhavati. Mritshakatikam iti. Chakaraha. Chakarasya chakaraha bhavati. Agre ashyamaha. So mritshakatikam iti. Ekam natakam asti. Prasiddham. Tadjyatva patha. Tadjyatva. 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 Dakarasya sthane jakaraha bhavati. Kashchana bhikshukaha agataha. So, kaschana, kaschana, sakarasya, shakaraha, bhavati, kaschana. Bhavan yat vadati tachintyam. So, tachintyam. Tachintyam, tachintyam. Sakarasya, shakaraha. So, that must be thought, that is worth thinking, or should be thought about, ityarthah, tachintyam. Kiyachiram pratikshaneyam maya. Kiyachiram. So, kiyachiram, kiyachiram. So, takarasya chakarah. Kiyachiram. How long? Kiyachiram. How long should I wait? Kiyachiram pratikshaneyam maya. So, ayam shchutva sandhehe niyamaha. Sakaraha athava tavargasya varnaha. Sa, tha, da, dha, na. Sakaraha athava tavargasya varnaha santi. Tataha shakaraha athava chavargasya varnaha. Cha, cha, ja, cha, ya. So, any of these. So, when sakara or letters of savarga are followed by shakara or chavarga. So, purvatana udaharanani paschamaha che. Cha, ja, cha, cha. So, paravarnaha, chakaraha, jakaraha, shakaraha. So, shakaraha, chakaraha, chakaraha. So, chakara, chavarga letter. Shakara or chavarga letter. So, sakara or tavarga. So, tada adeshaha kaha bhavati. Sakarasya sthane shakaraha bhavati. Tavarga varnanam sthane chavargasya varnaha. So first letter ta is replaced by cha. Tha, cha, da, ja. So tavarga letters are replaced by the respective letter of Chavarga. Sakarasya sthane shakaraha bhavati, Tavarga varnanam sthane Chavargasya varnaha kramashaha adeshaha bhavati. Saha shchutva sandhehe niyamaha. So, ayam niyamaha, atra anyadapi ekam nyatavyam. Niyamaha evam, sakaraha tavargaha. So, tasya shakarena tavargena yoge. So, shchutva sandhi is unique in that sometimes the shakara or chavarga may come before and then sakara or tavarga. Tadapi shchutva sandhihi bhavati. So, tatra sakarasya sthane shakarasa, tavargasya sthane chavargaha adeshaha bhavati. Ayam shchutva sandhehe niyamaha. Ekaha amshaha gyatavyaha. Ut chalati. So, takaraha asti. Takarasya sakaraha utchalati. Utchalati iti bhavati. Yada jakaraha asti. Ut jvalati. Okay. So, gatavarge asmabhihi jashtvasanthihi drishtaha. Mridu vyanjanam asti che. So, chakaraha mridu vyanjanam na. Right? So, chakara is not mridu vyanjana. So, jashtva need not be there. So, ut jvalati, tatra adau takarasya dakaraha bhavati. Ud jvalati, tataha dakarasya sthane chavargasya tritiyaha varnaha. Uj jvalati. So, ujjvalati iti bhavati. Right. So, ujjvalati. So, tat cha. So, tach cha. Tatcha iti bhavati. So, tat jagat, athava tad jnatva iti asi. So, tatra jashtra sandhi bhavati, tad jagat, and taj jagat, tad jagat. So, jashtva and shtutva, ubhayam api bhavati. Athava kutra tat kasthapaniyam, kutra tad sthapaniyam iti kandeha bhavati se. So, tatram tritiya varnaha asti che d. So, if you are given tad jagat, so the first split would be tad jagat and then tat jagat. So, shchutva sandhihi, jashtva sandhihi, ubhayam pradarshaniyam bhavati. Avagatam? So, this is, I'll make a note here. This is not the exact Paninian prakriya. So, for those who have studied Panini, so the prakriya is slightly different. Perhaps at the end of Kanthis we will see how it happens actually. But for practical purposes, this should be enough. Okay. Sandeha Hastiva. Any questions at this stage? Shri Ram.
Yeah, I was under the impression that when you do a sandhi, it can only happen once.
Yeah, no, that is what it is not so. So, as many sandhis are possible based on the conditions, you can keep on doing it. As we saw even in the first case, so first there is visarga sandhi, so harihi shete, so the visarga first becomes sakara, and then the sakara becomes shakara. So, it can be a series of sandhis. So, there can be four, there can be five. So, as long as the condition for a sandhi is satisfied, you can keep on doing the convention to get the final form.
Okay, thank you.
Maheshwari.
Prashna hasti, basic question. Hari shete, kimattam haris plus shete, harihi plus shete na bhavati atra? Kimattam?
इत्युक्ते वक्तं किल हरिः शेते इत्यत्र आदौ विसर्गसन्धिः भवति. सो द विसर्ग इस् फस्ट् कन्वर्टेड् टु सकार. And now we are looking at the second stage of the conversion where sakara is being converted to shakara. So the first conversion we will study when we do the visarga sandhi. Putra ha visarga cha sakara ha bhavati.
Okay. Punah ek varam ujjvalati pataniyam kripaya.
Ujjvalati ityatra ujjvalati ityasti sakara ha. सो आदौ तकारस्य जष्ट्वं भवति बिकॉज इट इज अ मृदु व्यञ्जन. सो पदान्ते तकारस्य मृदु व्यञ्जने परे दकारः भवति. सो उद् ज्वलति. सो इदानीं दकारस्य श्रुत्वं. सो जकारः अस्ति इत्यतः दकारस्य श्रुत्वं. सो दकारस्य श्रुत्वम् इत्युक्ते जकारः भवति. उज् ज्वलति. सो उज्ज्वलति इत्यत्र उद् ज्वलति.
अस्तु अस्तु धन्यवादः भगिनि.
अविनाश वैद्य प्रश्नः अस्ति वा?
In this, I have a question, doubt about Utjwalati and Ujjwalati. Can I write, instead of writing final form Ujjwalati, can I write Ujjwalati as a intermediate form?
It's an intermediate form, but it's not the final form because Sutra Sandhi is compulsory. So,
Sutra Sandhi
form only Ujjwalati. So, you cannot use Ujjwalati.
Oh, okay. Understood. Thank you.
So, agre gachhamaha. So, kinchit abhyasam kurmaha. Shchitva santihi. So, udaharanam ekam pashyamaha. So, shishus shete. So, atra purva varnah asti sakaraha. Shakaraha. So, sa is the sthani. So, it is replaced by sha as the adesha. So, shishushete iti bhavati. Or maybe some other example. So, sat chit. So, takaraha sti purvavarnaha. Chakaraha paravarnaha. So, takarasi sthane chakaraha bhavati. So, sada sat chit. सचित इति रूपं भवति. वक्तुमिच्छन्ति हस्तमुन्नयन्तु. वी विल् प्राक्टिस् श्रुत्वसन्. लता शेखर.
बृहच्छत्रम् ऊर्ध्वम्
बृहत् छत्रम्. सो तकारस्य चकारः बृहच्छत्रम् इति भवति. अग्रिमम्
तपश्चर्या.
सो सकारस्य शकारः तपश्चर्या. धन्यवादः. पद्मनाभन् अय्यर्.
नमस्ते. उज्जीवनम् अपि चतुर्थम्.
उद्जीवनम् उज्जीवनम् चतुर्थं भवति.
हरिश्चेते अपि वि जस्ट् डिस्कस्ड्. हरिश्चेते फर्स्ट् वन्.
प्रथमं हरिश्चेते सकारस्य शकारः भवति. धन्यवादः. अविनाश वैद्य.
दिस् इस् गुणिन् प्लस् जय. सो नकार चेञ्जेस् टु ण. दट् इस् गुणिञ्जय सेकेण्ड् वन्.
सेकेण्ड् सम्यक्. नकारस्य स्थाने ण्यकारः भवति. गुणिञ्जय.
सन प्लस् शम्भु. न चेञ्जेस् टु Nya. Sanya Shambhu. Second again.
Sanya Shambhu.
Sanya Shambhu.
Sthane Nyakaraha.
Nyakaraha.
So that is one case which we did not see in those examples. Nakarasya sthane nyakaraha bhavati. Okay, so this is an example which we already seen. So, but still, anybody wants to try? Those who haven't tried anything in this class? DVR. DVR. Vijay Raghavan Mahoday. Prashruyate. Can't hear you. Nanda Kumar.
Namaste. Mrit Shakatika Sakarasya Sthane Sakaraha Prathama Mrit Shakatika.
Mrit Shakatika.
Sat Chid Rupam Sakarasya Sthane Sakaraha Sat Chid Rupam Tritiyam.
Tritiyam. Sat Chid Rupam. So Sakarasya Sakaraha Bhavati. Sundara Raman. You have to unmute yourself.
Etad Jyatva. Etad Jyatva. Tritiya.
Tritiya. Dakarasya Jakaraha. Agreement. Hayat.
Vayat krud. Haya.
Jashaha. Jashaha.
Jashaha. Vayat krud. Jashaha. Dakarasta sthana. Dakara.
Correct. Jakarasya sthane jakaraha. Kutra asti jakaraha. Ekatra eva jakaraha asti.
Dvitiya.
Dvitiya. Samyak. Trayakrit jashaha. Samyak. Dhanyavadaha. So, bhayakrit jashaha. Jashaha meenaha. So, fish which is very fearsome. So, a terrifying fish. Ityartha bhayakrit jashaha ityartha. So jashaha meenaha. So agrimam abhyasam kurmaha tatra sandhihi vibhajaneenaha. Ranga Krishna. Na shruyate.
Kiyat.
Shruyate. Kiyat chiram. Kim, which one?
Kiyat chiram. Pradhamam.
Pradhamam. Kiyat chiram. Kiyat chiram.
Pratipat chandraha. Tritiyam.
Tritiyam. Pratipat chandraha.
Chandraha.
So pratipat chandraha. Pratipat prathama. So prathama dine prathama tithau chandraha. Pratipat chandraha. Vardhamanaha. Ityartha. So agrimam. Ram Mallari.
ద్వితీయం సకృత్ చవర్ణం.
సకృత్ చవర్ణం, సకృత్ చవర్ణం. సో సకృత్ ఏకవారం ఇత్యర్థః. సో ఏకవారం చవర్ణం వద ఇతి.
చతుర్థం తద్ జ్వలతి తజ్వలతి.
సత్యం, తద్ జ్వలతి తజ్వలతి. సమ్యక్, ధన్యవాదాలు దేవనాథన్. న శ్రూయతే. పునః కృపయా. ద్వితీయం బృహత్ ఛిద్రం, బృహత్ ఛిద్రం. సమ్యక్, ధన్యవాదాలు. ఉమా మీనాక్షి. న శ్రూయతే. మైక్రోఫోన్ క్షమ్యత, న శ్రూయతే. జయకుమార్. జయకుమార్ శ్రూయతే.
షాంగింజయ. ణ్యకారః భవతి నకారస్య స్థానే షాంగిన్ జయ ద్వితీయం రూపం.
షాంగిన్ జయ, షాంగిన్ ఇది సంబోధనం. విష్ణుః షాంగీ ఇత్యుచ్యతే. షాంగం ధనుః విష్ణుః. హే విష్ణో జయ ఇత్యర్థః. అగ్రిమం. జయకుమార్ మహోదయ.
భూ భూభృచ్చలతి చకారః భవతి తకారస్య స్థానే భూభృత్ చలతి. భూభృత్ చలతి చతుర్థం రూపం.
భూభృత్ చలతి, భూభృత్ చలతి. సమ్యక్. భూభృత్ ఇత్యస్య పర్వతః ఇత్యర్థః. సో పర్వతః చలతి. సో రమేష్ మహోదయ.
నమస్తే. బలవాన్ ప్లస్ చక్ర, బలవాన్ చక్ర ద్వితీయ. ప్రథమం, ప్రథమం,
ప్రథమం. బలవాన్ చక్ర, చక్ర ఇంద్ర సహ బలవాన్, బలవాన్ చక్ర.
భవజ్జల్లరి తృతీయ.
తృతీయం భవజ్జల్లరి, భవజ్జల్లరి. జల్లరి ఇది ధన్యవాదః వాద్యం భవతి, లైక్ ద జాల్రా. సో భవతః జల్లరి, భవజ్జల్లరి. సో సమ్యక్. చిత్రసంధేః బహూని ఉదాహరణాన్ని ज्ञातवन्तः. शांगिन इत्यस्य कः अर्थः इति पृष्टम्. शांगिन इत्युक्ते विष्णुः, शांगं धनुः तस्य, अतः शांगिन इति संबोधनम्. हे विष्णो जय इति. तत्र केनचित् पृष्टम् हकारस्य झकारस्य सन्धेः उदाहरणानि लभ्यन्ते वा इति. No, we will not practically find examples with the Mahaprana. Okay? So, because usually there is some other transformation, even if there is a Mahaprana, usually Jashtva will take it away. So, practically we will find examples only for the first, third and the fifth letter. So, takarasya, dakarasya, nakarasya va udaharanani labhyante. Bhayakrit jashaha ekavaram punaha bodhayati. So, bhayakrit jashaha. So, bhayakrit bhayankaroti, that will generate fear. Jashaha iti meenaha. So, bhayakrit jashaha. So, dakarasya sthane jakaraha bhavati bhayakrit jashaha. So, shchitra santhihi nyataha iti bhavayamaha. So, agre gachamaha. Bhagavad Gita yaha keshanti shloka naam annoyadikam pashyamaha. Asmakan tu vishishtaye sannibodhadvijottama nayaka mama sainyasya samyathantan bravimite. Iti Duryodhanasya vakyam anuvartate. So, purvam Duryodhanaha pandavanam sainyam drishtva agatya dronacharyam vadati. Right? So, Vyudham Drupada Putrena Tavashishena Thimata. So Pashyaitam Pandaputranam Acharya Mahatim Chamu. So Pandaputranam Sainyam Pashya Tavashishyaha Hrishta Dyumnaha Vyuham Rasitavanasti. So Atrashura Maheshvasa Ityadina Pandava Sainyasya Yeye Uttamaha Viraha Tesham Namani Uktani Idani Asmakam Sainyasya Vishishtan Nayakan Suchayami iti Duryodhanaha Kathayati. So, Tatra Prathamaha Bhavati Padachedaha Sandhihi.
Padavichedaha Asmakam Tu Vishishtaha ye taan nibodha dvijottama nayakaha mama sainyasya sangnardham taan bravimi te. Sandhihi vishishtaha ye vishishtaha plus ye nayakaha plus mama asmakam plus tu Sangnardham plus Tan. I am wondering if we can also do Dvijottama, though it is Sambodhana. Dvija plus Uttama.
Correct. Dvija, Uttama, Dvijottama, Gunasandhi.
Gunasandhi, Vakya Vishleshanam. There are two Kriyas, Nibodha and Bravini. There are also two sentences. The first one is, Dvijottama is Sambodhana, Pradhama, and then Nibodha Kriyapadam. Pradhama Vibhakti, Ye Visishtaha Nayakaha, all Bahuvachanam. Dvitiya, Tan, Asmakam, Shasti, Tu, Avyayam. Then second Kriyapadam, Bravimi, Pradhama, Aham is Ajaharam. Dvitiya Tan Shasti Te means Tava Mama Sainyasya. Three Shasti. Sangnadham is Avyayam. Next Anvaya Rachana.
So we'll come to that later.
Shall I continue?
Yes, please.
He Dvijottama, that is Sambodhana. First one, Nibodha is Kriyapadam. Kaha Nibodha? Swam, which is Ajaharam. Then Kaan Nibodha? Tan Nibodha. Kidrushan Tan Nibodha? Ye Nayakaha Tan Nibodha. Kidrushaha Nayakaha? Visishtaha Nayakaha? केषां नायकः अस्माकं नायकः. देन् नेक्स्ट् वन् इस् ब्रवीमि, सेकेण्ड् क्रियापदं कः ब्रवीमि, अहं, दट् इस् रज्जहारम् अगेन्. कान् ब्रवीमि, तान्, तान् मीन्स् नायकान्. कस्य नायकान्, सैन्यस्य नायकान्. कस्य सैन्यस्य, मम सैन्यस्य. देन् किमर्थं ब्रवीमि, सङ्गार्थं ब्रवीमि. कस्य सङ्गार्थं, ते, दट् इस् तव सङ्गार्थं. हियर् दि मीनिङ्ग् इस् फ्रम् वाट् यु हेव् सेड्. Brahman Shrestha, know our leaders. I'll tell you the names of the best leaders among my army for your recognition. Actually, Tatparyam is, after giving details about the Pandavas army, Duryodhas, Suras and Dhanudharas, Duryodhana is now presenting the details about his own army. So he's saying, among Brahmanas. Please find, recognize the best leaders fighting on our side, in our, among our army. For your recognition, I am narrating to you about them.
Samyak. So, Anvaya,
Vyakaranamshan vadatu. Yeah, Vyakaranamshan, Asmakam, Dakarantaha, Trilingasaha, Asmasardaha, Shasti Vibhakti Bahuvachanam. To Avyayam, Visistaha, अकारान्त पुंलिङ्गः प्रथमाविभक्ति बहुवचनम्. ये दकारान्तः पुंलिङ्गः यद् शब्दः प्रथमाविभक्ति बहुवचनम्. तान् दकारान्तः पुंलिङ्गः तद् शब्दः द्वितीयविभक्ति बहुवचनम्. देन् निबोध, ऐ जस्ट् जस्ट् बुद्ध धातुः,
बुद्ध धातुः,
परस्मैपदी लोट्लकारः मध्यम पुरुष एकवचनम्. देन् द्विजोत्तम, दट् इस् सम्बोधन प्रथम. नायकाः, अकारान्त पुंलिङ्गः प्रथम विभक्ति बहुवचनं. मम, दकारान्तः त्रिलिङ्गः अस्मत् शब्दः षष्टि विभक्ति एकवचनं. सैन्यस्य, मकारान्तः नपुंसकलिङ्गः षष्टि विभक्ति एकवचनं. सङ्गार्थम् इस् अव्ययम्. तान्, दकारान्तः पुंलिङ्गः तद् शब्दः द्वितीय विभक्ति बहुवचनम्. ब्रवीमि इस् अगेन् धातुः, लट्लकारः उत्तम पुरुष एकवचनम्. धातु बृन्
Brunya.
Brunya, yeah. It is say, isn't it? Brunya. Yes. Yeah, yeah. Yeah. Latlakaraha Uttampurusha Ekvachanam. Am I correct? Yeah. Yeah. Te is Dakarantaha Trilingaha Yushmat Sabdaha Shasti Vibhakti Ekvachanam.
अत्र यथा उक्तं निबोध इति एकं क्रियापदं, ब्रवीहि इति अपरं क्रियापदं. सो निबोध जानीहि, सो इत्यर्थः. सो द्विजोत्तम, हे ब्राह्मणश्रेष्ठ, निबोध जानीहि. सो कान् निबोध, तान् इति. के ते, सो ये विशिष्टाः नायकाः, अत्यन्तं श्रेष्ठाः नेतारः. सो केषाम्, अस्माकम्. सो कौरवपक्षस्य ये श्रेष्ठाः नेतारः, तान् त्वं जानीहि इति एकं वाक्यम्. सो द्वितीयं वाक्यमस्ति ब्रवीमि, वदामि, अहं वदामि. सो कान्, तान् वदामि. सो तान् नायकान्, सो तेषां नायकानां नामानि अहं वदामि. कीदृशान् तान्, मम, कस्य तान्, कस्य नायकान्, सैन्यस्य. सो सैन्यं चमूः, सेनायाः, सेनायाः नायकान् लोकस्य सेनायाः मम सैन्यस्य दुर्योधनस्य सेनायाः तान् नायकान् वदामि किमर्थं संज्ञार्थम् सो उत्तम ज्ञानार्थं सो सम्या सो जस्ट् फॉर यू टू नो इति कस्य सम्यार्थं ते तव सम्यार्थं ब्रवीमि इति अतः हे आचार्य हे ब्राह्मणोत्तम अस्माकं ये कुरुपक्षस्य ये उत्तमाः श्रेष्ठाः नेतारः तान् जानीहि तव ज्ञानार्थं मम सेनायाः तान् नायकान् अहं वदामि इति दुर्योधनस्य वाक्यम् सो द व्याकरणांश वर् आल् नो तत्र एकः प्रश्नः सन्ति इति अध्याहार्यं वा इति सो ये नायकाः सन्ति तान् निबोध इति यु केन् डू अध्याहार बट् इवन् अदर्वैस् सिन्स् यत् शब्द इस् देर् सो ये नायकाः तान् निबोध सो तथापि साक्षादन्वयः अपि कर्तुं शक्यते सो सम्यार्थम् इति अव्ययं न भवति सो इवन् दो ओन्ली पॉइंट ऐ वॉन्टेड् टु मेक् इन् व्याकरणांश सो संज्ञायै इदं सम्यार्थं ब्रवीमि सो सम्यार्थ शब्दः द्वितीया विभक्तौ एकवचनम् इट्स् दिस् वन् अत्र कश्चित् प्रश्नः अस्ति सो अन्वयरचना अपि अत्र दातुं शक्यते वा इति अन्वयरचना विल् बि गिवन् इन् द आन्सर् फैल् रैट् सो प्रतिवर्गम् आफ्टर् द क्लास् यु हेव् द आन्सर्स् टु द लास्ट् एक्सर्सैज् सो तत्र पूर्णं दीयते सर्वमपि दीयते I am just saving myself some work by not typing it out because many of you would have tried out and it is for your practice. So, yada preshayanti anantaram tadapi aham yojayitva answers rupena diyati. So, atra kashchana prashnaha. So, many questions with tadasthe. सो ते ये ते इति भवति वा इत्युक्ते यत् शब्दस्य तत् शब्दः ते इति भवति वा इति सो थियोरिटिकलि भवितुम् अर्हति किन्तु अस्मिन् श्लोके न भवति यतोहि ये नायकाः तान् निबोध इत्येव अन्वयः सो ये नायकाः ते किं कुर्वन्ति तत्र प्रथमपुरुषे किमपि क्रियापदं नास्ति सो अतः ते इति ये इत्यस्य इत्यनेन सह ते इत्यस्य अन्वयः न भवति तव ते तत्र युष्मद्शब्दस्य द्वितीया चतुर्थी षष्टि एतासु विभक्तिषु रूपद्वयं भवति ओके सो तव ते युवयोः वाम् युष्माकं वह इति षष्ठी विभक्तौ एवमेव तुभ्यं ते इत्यपि भवति अतः ते इति युष्मच्छब्दस्य चतुर्थी विभक्तौ अपि भवति षष्ठी विभक्तौ अपि भवति सो तव सम्यार्थम् इति अन्वयः क्रियते चेत् षष्ठी ते इति अथवा तुभ्यं ब्रवीमि इति अन्वयं कुर्मः चेत् ते इति चतुर्थी इत्यपि वक्तुं शक्येत सो इफ् यु आर् टेकिङ्ग् इट् वित् सम्यार्थं तव सम्यार्थं फार् युवर् नालेज् तदा षष्ठी विभक्तिः भवति अथवा सम्यार्थं ते ब्रवीणि तुभ्यं ब्रवीणि इति स्वीकुर्मः चेत् चतुर्थी अपि भवितुम् अर्हति सो यद्यपि प्रथमा विभक्तौ बहुवचने सहतौ ते इति भवति, अस्मिन् श्लोके सः अर्थः न सङ्गच्छते. सो यू केन् नाट् फिट् इन् द प्रथमा विभक्ति इन् दिस् श्लोक. इन् दिस् काण्टेक्स्ट् इट् डस् नाट् फिट्. एनि अदर् क्वश्चन् अस्य श्लोकस्य विषये? अग्रे गच्छामः. द्वितीयः श्लोकः. अन्ये च बहवः शूराः मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः. सो मध्ये वस्तुतः पूर्वतनश्लोकस्य मध्ये अस्माकं तु विशिष्टाये तान्निबोधद्विजोत्तम नायका मम सैन्यस्य सम्यार्थं तान् प्रवीणिते भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामाविकर्णश्च सौमदत्तिस्तथैव च. सो दुर्योधन गिव्स् दट् लिस्ट्. सो तत्र सर्वमपि प्रथमान्तम् एते सर्वे सन्ति इति विशिष्य अंशः किमपि नास्ति इत्यतः सः श्लोकः त्यक्तः. अग्रिमः अयं श्लोकः.
श्रूयते?
श्रूयते.
पदच्छेदः सन्धिः. अन्ये च बहवः शूराः मद् अर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः. अत्र क्रियापदं नास्ति. सन्ति अध्याहार्यम् सन्ति इत्यध्याहार्यम्. प्रथमाविभक्तौ अन्ये बहवः शूराः त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः. ये शब्दाः प्रथमाविभक्तौ सन्ति. सप्तमे विभक्तौ मदर्थे चाव्ययम्.
सम्यक्.
क्रियापदम् अध्याहार्यं सन्ति. के सन्ति? अन्ये सन्ति. कीदृशाः अन्ये? शूराः. कति शूराः? बहवः शूराः. कीदृशाः शूराः? नानाशस्त्रप्रहरणाः विविधशस्त्रप्रयोगसमर्थाः. पुनः कीदृशाः? युद्धविशारदाः, युद्धे निपुणाः. कति युद्धविशारदाः? सर्वे युद्धविशारदाः. पुनः कीदृशाः? त्यक्तजीविताः, प्राणत्यागाय संसिद्धाः. कस्यार्थे त्यक्तजीविताः? मदर्थे त्यक्तजीविताः.
सम्यक्. सो मदर्थे. उत्तमम्.
व्याकरणांशः. अन्ये बहवः शूराः त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः. अकारान्ताः पुल्लिङ्गाः प्रथमाविभक्तौ बहुवचनम्. मदर्थे अकारान्तः पुल्लिङ्गः सप्तमी विभक्तिः एकवचनम् अव्ययम्.
बहवः इति उकारान्तः. बहवः सम्यक्. अन्ये सर्वे इति पदद्वयं सर्वनाम, अकारान्तं सर्वनाम, तस्य प्रथमा बहुवचनम्. सो शूराः, त्यक्तजीविताः, युद्धविशारदाः, नानाशस्त्रप्रहरणाः. सो अकारान्तपुल्लिङ्गः प्रथमा बहुवचनम्. सम्यक्. धन्यवादः. सो सन्ति, अन्ये अपि सन्ति. सः बहूनां नामानि उक्तवान्, किन्तु अन्ये बहवः सन्ति. सो इतरे अपि इत्युक्ते मया येषां नामानि उक्तानि तेभ्यः इतरे बहवः, सो अनल्पाः शूराः वीराः सन्ति. सो कीदृशाः ते सर्वे? सो सर्वेपि ते बहवः इति उक्तं. ते सर्वे अपि नानाशस्त्रप्रहरणाः, विविध आयुधधारिणः, युद्धविशारदाः, सङ्ग्रामनिपुणाः, त्यक्तजीविताः. सो मदर्थे मम निमित्तं मम कारणेन त्यक्तजीविताः प्राणान् त्यक्तुं सिद्धाः सन्ति. So there are others also who have given up by their life. Vastutah tyaktam jivitam yesham. So yuddharangam prati agamana samane eva jivitam tyaktva eva agatah. So then kaha arthah pranasya asham vina nirbhayam yudhyanti ityarthah. So if you have a fear for life, you will not fight fully. Atah tyakta jivitah. जीवितं पूर्वमेव त्यक्तम् अतः निर्भयं युध्यन्ति इत्यर्थः. सो मदर्थे, सो मम अर्थः मदर्थः मम कारणार्थं मम प्रयोजनार्थं. सो मदर्थे इति मम अर्थः तस्य विषये. मम अर्थः, अर्थः नाम अत्र प्रयोजनं, फार् मै कास्. मदर्थे इत्यस्य फार् मै कास् अर्थः प्रयोजनं. सो तस्मिन् तस्य विषये, सो मम यत् प्रयोजनं तस्य विषये ते सर्वे त्यक्तजीविताः इत्यर्थः. सो मदर्थे मत् अर्थे मदर्थे मत् इति मम इत्यस्य आदेशः, अस्मत् शब्दस्य आदेशः. मत् अर्थे मदर्थे तत्र जष्वसन्धिः अस्ति. सरलः श्लोकः. सो आल् आफ् इट् इस् जस्ट् विशेषण. सो प्रथमाविभक्त्यन्तं सर्वमपि विशेषणमेव अस्ति. अन्तिमः श्लोकः. अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं त्रिदमेतेषां बलं भीमाभिरक्षितम्.
पदविभागः प्रथमः. अपर्याप्तं तत् अस्माकं बलं भीष्म अभिरक्षितं पर्याप्तं तु इदम् एतेषां बलं भीम अभिरक्षितं.
सम्यक्.
तत् प्लस् अस्माकम् अपर्याप्तं प्लस् तदस्माकं मकार
अनुस्वार
अनुस्वारकं तदस्माकं बलं बलं भीष्माभिरक्षितं भीष्म अभिरक्षितं सर्व सवर्णदीर्घकं पर्याप्तं
अस्माकं
तत् अस्माकं तदस्माकं साधिकं सन्ति
जस्ट्
जस्ट् पर्याप्तं तु अनुस्वार सन्ति तु इदं यण् सन्ति
तु इदं त्रिदं यन् सन्धिः
यन् सन्धिः इदम् एतेषा इदमेतेषा सन्धि अथवा
सन्धिः
नो
नेत्रेषा इदं एतेषाम् इदमेतेषाम् फस्ट् क्लास् यथा गृहम् आगच्छति गृहम् आगच्छति देर् इस् नो सन्धि. It is just joining the letters. Vikarah, varna vikarah nasti, atah sandhihi nasti.
Tridam etesham balam, anuswara sandhi. Balam bhimabhirakshitam anuswara sandhi. Vakya vishleshanam, asti kriyapadam adhyahritam. Prathama, aparyaptam paryaptam. बलं तत् इदं भीष्माभिरक्षितं भीमाभिरक्षितं षष्टी अस्माकम् एतेषाम् अव्ययं तु So, asti pratamaha bhava for bhishma virakshitam, asti kriyapadam kim asti, palam asti,
palam asti or aparyaptam asti.
Kim asti, palam asti, kim tatu balam?
Tatu asti sarvanama, so it's okay, tatu balam.
Kīdrśyam asti aparyāptam. Aparyāptam asamartam in one word I wrote asamartam.
Tasya arthaha kaha sikriyate. Asya shlokasya dvedha arthaha sikriyate. Kim vadati duryodhanaha asmakam balam aparyāptam.
Aparyāptam.
Yukte astutaha duryodhanasya kathanasya vivaksha unlimited asmakam aparyaptam nama bahu adhikam asti asmakam balam etesham tu kevalam niyamitam bahu mita parya pramane asti asmakam balam amitam so it is more tasmin arthe saha vadati
so beginning prashna asti when I look for the artha meaning for this, especially aparyaptam, it is given in both sense.
Duryodhana, obviously he is not putting down. See, if you look at the outer meaning, what Duryodhana means to say is that his army is unlimited while the Pandava's army is limited.
Okay.
Tadev, Vyasaha Tatha Kathayati, Vyakhyakaraha Vadanti, it appears as if he himself is making the confession that this is not enough and theirs is enough. Okay. But that is not what Duryodhana would say himself.
Okay. That is what my confusion caused in writing the...
Right. Arthadvayam api asti, kintu tena vivakshitaha arthaha aparyaptam, aparimitam. Ameyam ityartha.
I looked at the spoken Sanskrit and chose that asamartam.
Correct, exactly. I mean, that is why obviously that particular word has been used because it can be interpreted both ways.
Kīdrśyam balam bhishmābhi rakṣitam balam. Bhishmena palitam. Asti kim asti idam balam. Kīdrśyam asti paryāptam. Idam balam, I said idam vīryam.
No. Atra balam ityasya vīryam ityarthaha na sainyam ityarthaha. Balam ityasya sainyam atra.
Kīdrśyam balam dīmābhi rakṣitam, dīmena pālitam. Kēśyam balam yetēśyam. Anvayaha asmakam
eteshaam ityukte kesham pandavana.
Isn't right.
No problem. Pandavanam balam.
Pandavanam balam. Anvayaha asmakam bhishmabhirakshitam tat balam aparyaptam. Eteshaam tu bhimabhirakshitam idam balam paryaptam.
Samhita.
Samyak?
You're so Aascharyam.
Aascharyam? Bahu Aascharyam, Bhagini. Aascharyam. Asmakam sainyam, dhimena balena palitam, asam
Bhishmena palitam, asmakam sainyam.
Asmakam sainyam, bhishmena balena palitam, parimitam, aparimitam asti? Yetesham, pandavanam sainyam, dhimena balena palitam, parimitam asti.
Parimitam asti, samyak.
Vyakaranam shaha, aparyaptam, paryaptam, visheshanam?
Balam ekche. So, napumsakalingam.
Napumsakalingam prathama vibhakti ekavachanam. Balam अकारान्तः नपुंसकलिङ्गः प्रथमविभक्ति एकवचनं तत् दकारान्तः नपुंसकलिङ्गम् एकवचनं प्रथमाविभक्ति अस्माकं दकारान्तः त्रिलिङ्गकः अस्मद् शब्दः षष्ठीविभक्ति बहुवचनं भीष्माभिरक्षितं भीमाभिरक्षितं विशेषणम् अस्ति विशेषणं विशेषणं नपुंसकलिङ्गम् अकारान्तशब्दं विशेषणम् नपुंसकलिङ्गम् एकवचनं प्रथमाविभक्ति तु अव्ययम् इदं मकारान्तः नपुंसकलिङ्गः एकवचनं प्रथमाविभक्ति एतेषां दकारान्तः पुल्लिङ्गः षष्ठीविभक्तौ बहुवचनं
सम्यक् उत्तमम् सो अत्र एकः प्रश्नः अभिरक्षितम् इति क्रिया न वा इति अभिरक्षितम् इस् अ क्रिया सो प्रोटेक्टेड् बै भीष्म सो अस्माकं बलं भीष्म अभिरक्षितम् एतेषां बलं भीमाभिरक्षितं किन्तु वाक्ये तद् मुख्या क्रिया न सो भीष्माभिरक्षितम् अस्माकं तत् बलम् अपर्याप्तम् अस्ति एतेषाम् इदं भीमाभिरक्षितं बलं पर्याप्तम् अस्ति इत्येव वाक्यस्य विवक्षा सो अभिरक्षित ईज् अ क्रिया बट् दट् इस् नाट् द मेन् क्रिया आफ् द वाक्य सो तदेव अपर्याप्तम् अस्ति इत्यत्र अर्थद्वयं वक्तुं शक्यते सो अपरिमितम् अस्ति तेषां तु परिमितमस्ति इति अर्थः दुर्योधनेन विवक्षितः वस्तुतस्तु असमर्थमस्ति अस्माकं बलं तेषां तु समर्थमस्ति इत्यर्थः अपि वक्तुं शक्यते अपर्याप्तं पर्याप्तम् इत्यस्य बलम् इति द्वितीया विभक्तिः न भवति वा इति बलम् अस्ति इति क्रिया अतः बलं प्रथमा विभक्तिः सो द्वितीया विभक्तिः चेत् अन्या क्रिया अपेक्षते सो वि नीड् अनदर् क्रिया टु रिलेट् इट् वित् देर् ईस् नो क्रिया सो अस्ति इत्यस्य अध्याहारे बलम् इति प्रथमा विभक्तिः एव भवति भीष्म अभिरक्षितम् इति विसर्गलोपः न भवति वा इति प्रश्नः विसर्गः नास्ति किल तत्र भीष्माभिरक्षितम् इत्यस्य विसर्ग एव नास्ति राहुल् महोदय
हरि ओम् तत्र भीष्माभिरक्षितम् इति तत्र भीष्मस्य प्रयोगः कः अथवा भीमस्य प्रयोगः अपि कः धातु वा शब्दरूप वा इति
भीष्मः भीष्मेण अभिरक्षितम् इति समासः सो भीष्म अभिरक्षित भीष्माभिरक्षित एवं भीमेन अभिरक्षितं भीमाभिरक्षितं पृथक् पदं न इट् इस् नाट् एन् इण्डिविजुवल् पद इन् द समास भीमाभिरक्षित इति एकं पदं भीष्माभिरक्षित इति एकं पदं पृथक्
नास्ति धन्यवादः
अन्ये केऽपि प्रश्नाः सन्ति वा न सन्ति तर्हि अग्रे गच्छामः सो अग्रिमवर्गे सो त्रीन् श्लोकान् पश्यामः सो अयनेषुत सर्वेषु यथाभागमवस्थिताः भीष्ममेव अभिरक्षन्तु भवन्तः सर्व एव हि तस्य सञ्जनयन् हर्षम् कुरुवृत्तः पितामहः सिंहनादं विनद्योच्चैः शङ्खं दध्नौ प्रतापवान् ततश्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः इति श्लोकत्रयम् अग्रिमवर्गे पश्यामः पञ्चनिमेषाः सन्ति विल् क्विक्लि गो थ्रू अ प्रहेलिका विराजराजपुत्रारेह यन्नाम चतुरक्षरम् पूर्वार्धम् तव वैरीणाम् परार्धम् तव सङ्गते. सो गत वर्गे या प्रहेलिका दृष्टा राजन् कमलपत्राक्षः इति तादृशमेव इत्युक्ते अत्रापि कञ्चित् राजानम् उद्दिश्य कश्चित् वदति इयं प्रहेलिका. तत्रादौ पदानि पश्यामः. विराजराजपुत्रारेः यत् नाम नाम नामधेयम् नेम् चतुरक्षरम् फोर् लेटर्स् पूर्वार्धम् सो पूर्वम् अर्धम् द फस्ट् हाफ् वैरीणाम् वैरी नाम शत्रुः. परार्धम् परम् अर्धम् द सेकेण्ड् हाफ् तव सङ्गरे युद्धे. सो युद्धे पूर्वार्धम् वैरीणाम् परार्धम् तव इत्यस्ति. कः अर्थः? हे राजन् कस्यचित् राज्ञः सम्बोधनम्. विराजराजपुत्रारेः यत् चतुरक्षरम् नाम. सो दिस् इस् वाट् वी हेव् टु रिसाल्व् इन् द प्रहेलिका. देर् इस् अ फोर् लेटर् नेम् आफ् सम्बडि विराजराजपुत्रारेः यत् चतुरक्षरम् नाम तस्य पूर्वार्धम् सङ्गरे तव वैरीणाम्. सो द फस्ट् हाफ् आफ् दट् नेम्. So there is a name with four letters. So first half of that name is for your enemy, parardham tava, and the second half is for you. Ityarthah. So kim nama? What is that name? So viraja raja putra rehe ityasti. Tat kim iti drashtavyam. Okay. So vi raja raja putra arihi. Pancha padani santi. वि राज राज पुत्र अरिः. सो प्रथमं ज्ञातव्यं विहि. विहि नाम पक्षी इत्यर्थः. सो वि इस् अ बर्ड्. सो अमरकोशे पश्यामः चेत् नगौको वाजि विकिर वि विष्किर पतत्रयः. सो अमरकोश गिव्स् द डिफरेंट पर्याय राइट द सिनोनिम्स. सो अमंग द सिनोनिम्स ऑफ अ बर्ड वी हैव वि. वि नाम पक्षी इत्यर्थः. सो दट् इस् द स्टार्टिङ्ग् पॉइंट. वि ओके. सो वि राजः. वि राजः इत्युक्ते पक्षिराजः. कः पक्षिराजः? केन् यु गेस्? ऐ केन् जस्ट् टैप् इन् द आन्सर्स् फर् हर्. पक्षिराजः कः? पक्षिराजः गरुडः. सम्यक्. सो विराजः नाम गरुडः. सो अग्रे विराज राजः. सो विराजः गरुडः. तस्य राजा स्वामी. सो गरुडस्य स्वामी कः? गरुडस्य स्वामी हु इस् द मास्टर् आफ् गरुड. एतत्तु सर्वे जानन्ति. गरुडस्य स्वामी विष्णुः. सो विष्णुः. सो विराजराज पुत्रः. सो विराजराजः विष्णुः. विष्णोः पुत्रः कः? विष्णोः पुत्रः विष्णोः पुत्रः एकः ब्रह्मा, अपरः अदर्पन्. मन्मथः. द्वाभ्याम् उत्तरं दत्तं. विष्णोः पुत्रः मन्मथः. सो मन्मथः इति उत्तरं. विराजराजपुत्रः विष्णोः पुत्रः मन्मथः. अग्रिमं सुलभं भवति. विराजराजपुत्र अरिः मन्मथस्य शत्रुः. मन्मथस्य शत्रुः शिवः. एतत्तु सर्वैः ज्ञायते. अस्तु. सो विराजराजपुत्रारिः नाम शिवः. सो शिवस्य चतुरक्षरं नाम. सो अ फोर् लेटर्ड् नेम् आफ् शिव. बहूनि सन्ति नामानि. विल् गिव् अ क्लू. देयर् इस् अ वेरि फेमस् जप एण्ड् अ होम इन् दट् नेम्. होमः जपः क्रियते तेन नाम्ना शिवस्य नाम मृत्युञ्जयः मृत्युञ्जय जपः मृत्युञ्जयः इति शिवस्य चतुरक्षरं नाम तत्र पूर्वार्धं नाम मृत्युः तव वैरीणां परार्धं जयः तव इत्यर्थः सो तव वैरीणां युद्धे मृत्युः भवति अथवा भवतु इति तव जयः भवतु इति प्रहेलिका सो द की पॉइंट इज इन सॉल्विंग द विराजराजपुत्रारेः यन्नाम चतुरक्षरं पूर्वार्धं तव वैरीणां परार्धं तव संगरे सो there were a couple of laukika nyayas but I think we'll see them just 2 minutes so vegena samapayamaha so sangare ityasya kah arthah sangaraha nama yuddham ityartham so yuddhe tava vairinam mrityuh bhavatu tava jayah bhavatu iti andha pangu nyayah very easy andha a blind man Panguhu, a lame fellow, he who cannot walk. So, andhaha, panguhu. So, andhaha asti, panguhu asti. Ubhau api kutrasit gantum ichchataha. So, they want to go somewhere. Andhaha drashtum na shaknoti, panguhu chalitum na shaknoti. Tarhi katham gachchataha. So, andhaha pangum bahubhyam unnayati. So, the blind man carries the Pangu on his shoulders. So, Panguhu margam pradarshayati andhaha tena margena gacchati. So, paraspara sahayena ubhau api lakshyam praptum shaknutaha. Ityarthe andha pangu nyayaha. Parasparam sahayam to overcome their disability. So, helping each other. The interdependence is given by andha pangu nyayaha. The next one is Vriddha Kumari Vakya Nyaya. We'll take this in the next class because it will take some time to explain. So we'll stop here. Adhyasmabhihi Sandhishu Jashtra Sandhehe Abhyasaha Kritaha Shchutva Sandhehe Niyamaha Avagataha Udaharanani Api Drishtani Abhyasam Kurmaha Agrima Varge Bhagavad Gita Shlokanamapi Adhyayanam Kritam तो प्रहेलिका लौकिकन्यायस्य दृष्टः अग्रिमसप्ताहे अस्मिन्नेव समये मिलामः विल स्टॉप हियर इफ यू हैव एनी क्वेश्चन यू कैन आस्क विल फर्स्ट डू द मंगलम सो दैट अदर्स कैन लीव इफ दे विश गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो धन्यवादाः केऽपि प्रश्नाः सन्ति चेत् पृच्छन्तु सो इफ यू हैव एनी क्वेश्चन रिलेटेड टू व्हाट वी डिड आर इन जनरल यू कैन आस्क महेश्वरी राम रामानुजन
आई हैव अ क्वेश्चन इन संज्ञार्थम Is there a sandhi where the makaraha gets replaced with anuswaraha?
Yes. Yes. Wherever you see anuswara, it is usually a cause of makara being replaced by anuswara. At the end of the word. So everywhere it is anuswara sandhi.
This is inside the word, right?
In the samgya, you're talking about this thing in sam. Yes, that is also anuswara sandhi.
Okay, that's what... It was not clear to me. It's within the
Pada. Upasarga. The upasargas are always, they have the status of a Pada.
Okay.
So, in an upasarga, it is treated as a Pada, so there is anuswara.
Okay. Thank you.
Swaminathan.
Yeah. So follow up on that anuswara. I thought a good way of writing Sanskrit, you use the word sam, not put a dot.
Sorry, I cannot.
Samyartam, right? Okay. So, sa-im-yaktam instead of sam-yaktam. We not use the word.
You mean the Savarga Panchama?
Right.
Yeah, you can use the Savarga Panchama. Whenever it is an upasarga, that is sam, if the following letter is a Vargiya Vyanjana, then we have an optional replacement of the fifth letter of the Varga. Okay, so for an upasarga, that is, if it is a pada, it is optional. Otherwise, it is compulsory. As you say, we don't see many anuswaras in between a word. So, usually that sandhi is called parasavarna sandhi is compulsory. But when it is the upasarga, which is most commonly the sam upasarga, so it is optional. So, you can either write it with anuswara or with the fifth letter of the varga. So, sankhya. So, there also it is there. You can write it with nakara or the anuswara.
Thank you.
So, anyaha prashna hasti, again, bhayakrit dijhasaha, tatra kasya adeshaha, java java, Adeshaha jakaraha, dakarasya jakaraha. Dalpa prana, the third letter is the adesha. The jha, the original fourth letter is there. So you will have bhayakrit jhashaha. Jha, jha, ubhayam drishyate. Shivram Kulkarni. Krishna Hattva. न श्रूयते महोदय कैन नॉट हियर यू राहुल महोदय
महोदय अधुना अपि तत् चत्वम् अपि च जस्त्वम् मध्ये किञ्चित् भ्रान्ति अस्ति इत्युक्ते अधुना उत् ज्वलति तत् स्वीकुर्मः उत् ज्वलति प्रथमतया तवर्गः भवति पूर्वस्मिन् वर्गे तद् तत्र दकारस्य आदेशः भवति तद् पुनः उद् प्लस् ज्वलति इति भवति तत्र संहिता भवितुम् अर्हति वा न वा
भवत्येव संहिता अस्ति चेदेव किल सन्धिः भवति धातु उपसर्गयोः संहिता नित्या सो इट् इस् अ कम्पल्सरी संहिता बिट्वीन् उपसर्ग एण्ड् धातु
आम् किन्तु तद् उद् उद् ज्वलति तदेव संहिता कुर्मः चेत् उद् ज्वलति इति भवितुम् अर्हति वा नो चेत् अवश्यं सन्धि
दुष्टित्वं करणीयमेव You cannot stop a sandhi. When a series of sandhis are happening, you cannot stop them in between. I mean, yadi samhita asti, tarhi sarve sandhayaha kartavyaha bhavanti. Right. If there is, I mean, assuming, see, ujjvalati is a case where you have to compulsorily have a samhita because it is dhatu and upasarga. But let's take something like tajjvalati. Okay, tatujjvalati. Now, if you say there is no samhita, then you cannot do either jashtva or this one. Right.
Chatvam.
So if you are doing, you have to do both.
So that means the other example also, bhayakrit jashah iti, tatra api bhayakrit jashah iti asit vap.
Amam. Yes, yes. Bhayakrit jashah. It becomes bhayakrit jashah. Anantaram ashtitvam bhavat.
Avatam. Dhanyavad.
धन्यवादाः महोदय न श्रुतं शिवराम कुलकर्णी महोदय सः शिरीश जी महोदय नमस्ते महोदय स्वागतम् भवतः मैक्रोफोन् कार्यं न करोति वा भाषितुं शक्यते स्म न श्रूयते भवतः ध्वनिः अन्तिमः प्रश्नः तत् ज्ञात्वा इति पुनः बोधयति वा इति. तत्रापि तथैव तत् ज्ञात्वा तत्र तकारस्य स्थाने आदौ दकारः भवति. सो तद् ज्ञात्वा ज्ञा इत्यत्र जकारः अस्ति. ज्ञा इति संयुक्ताक्षरं जकार ञकारयोः जकारः अस्ति. सो तस्मिन् परतः दकारस्य जकारः. सो तज् ज्ञात्वा इति भवति. तज् ज्ञात्वा धन्यवादः.